सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि वदतु.
ॐ शुक्लं वरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. सहनावतो सहनौ भुनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषादहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ.
गुरुभ्यो नमः. हरिः ॐ. रामो राजमणिः सदा विजयते रामं रमेशं भजे. रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं. रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर. ॐ श्री सीतारामचन्द्राभ्यां नमः. भवन्तः जानन्ति वा 29th इति अहं चिन्तयामि. तथा सीता नवमी इति भवति. रामनवमी अभवत् मार्च् मासे, सीता नवमी आगच्छति. सो अत्र पश्यन्तु सीता नवमी 2023 इति अस्ति चेत्
भवानी श्रीवासम्.
स्वागतं भगिनि. सो अत्र साटर्डे अक्टोबर् 29th इति अस्ति.
अक्टोबर्
एप्रिल् 29th इति अस्ति. ऐ जस्ट् थाट् इण्ट्रेस्टिङ्ग् इति.
What is happening on April 29th? I'm sorry, I forgot.
Astu, April 29th, Sita Navami iti bhavati. Shukrapaksha Vaisakha Mase evam bhavati. Navami tithyam evam bhavati.
Navam tithyam asti.
Is there any program, Radhika?
So atra कथामाला समये ते उक्तवन्तः साधारणतया रामः सीता रामायणम् इत्यादिकं भवति चेत् हनुमान् आगच्छति तत्र. सो अतः हनुमान् जयन्ती इव हनुमान् चालिसा अस्ति खलु, हनुमान् चालिसां वदामः इति. परन्तु संस्कृतकार्यक्रमः अतः हनुमान् चालिसा संस्कृतेन वदामः चेत् सम्यक् भवति इति ते चिन्तयन्ति. अतः ते उक्तवन्तः यूट्यूब् मध्ये एका महिला स्थापितवती, उषा इति तस्याः नाम. सा स्थापितवती हनुमान् च मम समीपे इदानीं नास्ति, अनन्तरं प्रेषयामि. तत् अद्य श्रावयतु मीन्स् मेक् अदर्स् हियर्, निच् तदे प्रयोगः. पठतु पाठयतु, शृणोतु श्रावयतु, मेक् अदर्स् लिसन् इति श्रावयतु इति ते उक्तवन्तः. अतः अद्य कथायाः अनन्तरम् अहं तत् श्रावयामि, अपि च शनिवासरे अपि. यः कार्यक्रमं चालयति सः श्रावयति इति अस्ति.
चालिसा संस्कृतभाषा या अर्थ
संस्कृतभाषा लिखिता संस्कृतभाषा भाषया एव. अहम् अस्ति वा इति पश्यामि एकनिमेषं
परन्तु राधिका भगिनी हौ इस् डिफरेंट फ्रॉम द हिंदी वर्जन व्हिच वी
इज द सेम थिंग इज द सेम थिंग
ओके समेव एव
समानमेव अत्र पश्यन्तु
समानमेव
श्री गुरु चरण कमल धूल्या मम मनो मलिनं समाज्य रघुकुल भूषणं ध्यायामि चतुर्पुरुषार्थ प्रधानाय बुद्धिहीन देहीनहम् पवन कुमारं स्मरामि बलबुद्धि विद्या प्रदायकं दुःख कल्मष विनाशकम्
सो एवम् अस्ति सो अत्र सप्त निमेषाः भवन्ति तत्र निमेषान् यावत् भवति अहं शेर् करोमि अस्माकं ग्रूप् मध्ये अनन्तरं पश्यामः अस्तु वा अस्तु केवलं ज्ञानार्थम् उक्तवती किम् किं लक्ष्मी भगिनी किं
नो द वर्ड्स् आर् लिटल् डिफरेण्ट्
आम् निश्चयेन खलु एतत् संस्कृतेन अस्ति संस्कृतेन अस्ति परन्तु अर्थः समानमेव अर्थः समानं परन्तु संस्कृतेन अस्ति अत्र संस्कृतेन लिखितम् अस्ति अस्तु प्रथमं वयं यथा वयं पूर्वं कृतवन्तः एकं सुभाषितं पश्यामः मात्रा समं नास्ति शरीरपोषणम् विद्या समं नास्ति शरीरभूषणम् पूजा समं नास्ति शरीरतोषणम् चिन्ता समं नास्ति शरीरशोषणम् सो अत्र शरीरपोषणं शरीरभूषणं शरीरतोषणं शरीरशोषणम् सो अत्र मात्रा समम् इत्युक्ते मात्रा इत्युक्ते विभक्ति का अत्र मात्रा
तृतीया
मातृशब्दस्य तृतीया मात्रा सो अत्र समम् इति पदम् आगच्छति चेत् तृतीया विभक्ति भवति मात्रा समं नास्ति शरीरपोषणं शरीरपोषणम् इत्युक्ते वर्धनार्थं शरीरवर्धनार्थं पालनार्थं शरीरपालनार्थं मात्रा समम् अन्य कोऽपि कापि नास्ति अत्र विद्या समं नास्ति शरीरभूषणं शरीरभूषणम् इति वदामः चेत् अत्र आभरणानि न खलु आभरणानि न केवलं शरीरभूषणम् इति वदामः चेत् यत् वयं न द्रष्टुं शक्नुमः विद्या इति सो अत्र विद्या समम् एकमेव पदं सो अतः समस्तपदम् इति वदामः पृथक् लिखामः चेत् कथं लिखामः तृतीया विभक्ति किं भवति विद्यया समं नास्ति शरीरभूषणं शरीरस्य आभरणम् अस्ति विद्या
राधिका सोरि केन् यु से द फर्स्ट् लाइन वन्स अगेन ऐ डिडन्ट फॉलो वेल माता समम्
सो अत्र सुलभसंस्कृतेन अत्र अस्ति माता सर्वोत्तमं शरीरपोषणम् अस्ति विद्या सर्व उत्तमम् सर्व उत्तमं शरीरभूषणम् अस्ति पूजा सर्व उत्तमं शरीरतोषणम् अस्ति चिन्ता सर्वोत्तमं शरीरशोषणम् अस्ति सो अत्र इत्युक्ते किम् अम्बा एव सर्वेषां जनानाम् अपेक्षया सो सर्वोत्तमम् इत्युक्ते दि बेस्ट् इति अर्थे अत्र जनानाम् अपेक्षया लैक् कम्पेर्ड् टु आल् द पीपल् अपेक्षया जनानां षष्टिविभक्तिः भवति जनानाम् अपेक्षया उत्तमरीत्या अन्नम् इत्यादिकं दत्त्वा शरीरस्य वर्धनं पालनं करोति यतः अन्येन सह प्रेम अपि ददाति अन्येन सह प्रेम अपि ददाति सो अतः पोषणं करोति अन्नं ददाति प्रेम अपि ददाति इति अम्बा इत्युक्ते माता द्वितीयं किं सर्वेषां भूषणानाम् अपेक्षया आभरणानाम् अपेक्षया विद्या एव उत्तमम् आभरणम् अस्ति यतः विद्या कदापि न लुप्ता भवति इट् केनाट् बि लास्ट् अन्यत् चोरयितुं न शक्नुमः खलु चोराः विद्यां चोरयितुं न शक्नुवन्ति अतः आभरणानाम् अपेक्षया विद्या एव उत्तमम् आभरणम् अग्रे किम् अस्ति सर्वेषां कार्याणाम् अपेक्षया कार्याणि कार्याणां सो अत्र नानाम् इति द्विवारणम् अस्ति तत् सम्यक् नास्ति कार्याणाम् अपेक्षया कार्याणानि कार्याणां सम्यक् एव सर्वेषां कार्यानाम् अपेक्षया पूजा एव अति उत्तमं सन्तोषं जनयितुं कार्यम् अस्ति तोषणम् इत्युक्ते सन्तोषं सन्तोषं जनयितुं कार्यम् अस्ति यतः अन्यसन्तोषः मिथ्यः एव पूजां कृत्वा वयं सन्तोषम् अनुभवामः तादृशसन्तोषः एव सत्यसन्तोषः इत्युक्ते उत्तमसन्तोषः मिथ्यः न मिथ्यः इत्युक्ते एकक्षणं भवति द्वितीयक्षणं गच्छति परन्तु एतादृशपूजातः वयं यत् सन्तोषं प्राप्नुमः तत् सन्तोषं न गच्छति अतः मिथ्यः न सत्यसन्तोषः इति एवमेव चिन्ता चिन्ता इत्युक्ते चिन्तनं न थिङ्किङ्ग् न परन्तु वरि इति चिन्ता एवं सम्यक् रीत्या न भवति न भवति इति दुश्चिन्ता दुश्चिन्तनम् चिन्ता एव सर्वेषां शैलीनाम् अपेक्षया शरीरस्य नाशं करोति शोषणम् इत्युक्ते नाशनं करोति चिन्ता शरीरस्य नाशनं करोति यतः अनावश्यकचिन्तनं व्यर्थमेव अनावश्यक एवं सम्यक् न भवति इति तादृशचिन्तनं व्यर्थं व्यर्थं व्यर्थम् इत्युक्ते प्रयोजनं नास्ति निष्प्रयोजनं भवति इति तात्पर्यम् अस्ति सुभाषितस्य तात्पर्यम् एवम् अस्ति पुनरेकवारं कोऽपि पठितुम् इच्छति वा वसन्ता भगिनी पठति वा एकवारं
मात्रा समं नास्ति शरीरपोषणं विद्या समं नास्ति शरीरभूषणं पूजा समं नास्ति शरीरतोपणं तोषणं चिन्ता समं नास्ति शरीरशोषणं
शोषणम् अस्तु सम्यक्
शोषणं राधिका
शोषणम् इस् नाशनं
डिके
डिके डिके नाशं भवति
सो फ्रम् चिन्ता
इत्युक्ते चिन्ता एव सर्वेषाम् अपेक्षया चिन्ता एव प्रथमकारणम् अस्ति शरीरस्य नाशनात् नाशनार्थं शरीरस्य नाशनार्थं प्रथमकार्यं प्रथमकारणमस्ति चिन्ता अतः चिन्ता मास्तु इति
चिन्ता मास्तु
चिन्ता मास्तु प्रश्नः अस्ति वा? अन्यप्रश्नः अस्तु. इदानीं मैथिली भगिनी सिद्धा वा? वदतु मैथिली, इदानीं कथां श्रावयति.
ददातु गृह्णातु कथम्?
कथायाः नाम अस्ति ददातु गृह्णातु.
ददातु गृह्णातु. अहं किञ्चित् मम स्वस्य वाक्यं किञ्चित् पुस्तकस्य वाक्यं वदामि.
But I'm sorry, I don't have, where is this from, Radhika, sorry, Shavita Bhagini.
Astu, Maithili Bhagini, do you want to introduce the Katha?
Is it on WhatsApp?
Gurukula.com, right?
So, Astu, so Esha Katha, Gurukula.com iti YouTube madhye asti. Ekavaram pashyam mahava tat.
Radhika had sent link.
For the sake of Bhavani, we'll just go. Astu, so Bhavani, you will look at it later, okay? Idani Maitri eva vadatu. Okay, yeah, Maitri vadatu.
Etasmin grame kaschana kripanah vasati. कृपणः महाकृपणः कृपणः अतः सः अन्यं कदापि कस्मै न ददाति.
अन्यस्मै किमपि न ददाति.
एकदा सः अन्यं ग्रामे गन्तुं निश्चिनोति. मार्गस्य समीपे एका नदी प्रवहति. कृपणः नद्याम् एका नौका, नाविकः च पश्यति. सः नाविकेन सह नौकायाम् उपविश्य नद्यां प्रयाणं गच्छति. नौकायाः चालनात् प्रयाणात् आरभ्य नदी महता शान्तिं भवति. किञ्चित् दूरस्य अनन्तरं महा चण्डवातः आगच्छति. महती वृष्टिः भवति. वायुः वेगेन फूट् करोति. कृष्णमेघाः आकाशे आगताः. अतः नौका इतस्ततः आलोपति. कृपणः भयात् नद्यां पतति. सः तरणं कर्तुं न शक्नोति. अतः भीतया सः मां रक्षतु इति उच्चैः आक्रोशं करोति. नाविकः वदति, भोः तस्य हस्तं ददातु, अहं भवन्तं सहायं करोमि इति. परन्तु कृपणः महाकृपणः कदापि कस्मै न ददाति. अतः तस्य हस्तं निश्चयेन न ददाति. नाविकः तदा एकम् उपायं चिन्तितवान्. सः उक्त्वा, भोः मम हस्तं गृह्णातु इति. कृपणः क्षणात् नाविकस्य हस्तं स्वीकृत्वा नौकायाः अन्तः अवरोहति.
ओके, उत्तमं. सर्वे अवगच्छन्ति खलु? आं वा? सो अत्र
सम्यक् मैथिली भगिनी,
बहु सम्यक्, बहु लघु दोषाः एव तादृशमेव अस्तु अत्र गुरुकुल डाट् काम् गुरुकुल स्टोरीस् आन्लैन् सो अत्र स्टोरीस्
That was such a fun idea.
Something for me for a change was getting my education.
So, atre eva masti, story number two.
Two.
Tatana bhavate. Okay, anyway, so story number two. So, all the stories are here. Play all iti eva masti.
Chaturaha kakaha.
Oh, story number three.
Story number three.
I know, ma. I know. I'm going there.
Dadatu grinhatu. Kaschana gramaha. Grame ekaha krupanaha vasati. Sah kasmai api kadapi himapi dadadati. एकदा सः कृपणः अन्यं ग्रामं गच्छति
मैत्री यु सेड् ग्रामे ओके
नौका अस्ति नाविकः अपि अस्ति कृपणः नौकायाम् उपविशति नौकया नाविकेन सह कृपणः गच्छति
नौकया यु सेड्
नौकाया नौका किञ्चित् दूरं गच्छति तदा निसर्गकोपः भवति वायुः वेगेन वहति नौका आन्दोलयति कृपणः भीतः भवति नद्यां पतति किन्तु सः तरणं तु न जानाति सः उच्चैः वदति रक्षतु रक्षतु इति नाविकः वदति भोः हस्तं शीघ्रं ददातु इति परन्तु एषः महाकृपणः कदापि किमपि न ददाति स्वस्य हस्तमपि न ददाति नाविकः चिन्तयति एषः मूर्खः इति सः एकम् उपायं करोति वदति भोः मम हस्तं स्वीकरोतु इति कृपणः झटिति हस्तद्वयेन नाविकस्य हस्तं गृह्णाति नौकायाः अन्तः आगच्छति च
Thousands of free Sanskritam stories in Sarana Sanskritam as picture videos.
Samyak kalo? Samyak. Bahu samyak.
Kya?
Prashna ha kaha?
Kripana ha.
Ittukte kim va? Artha ha kaha?
Maha kripana
ha. Kripana ha ittukte maizar iti vadama kalo? Kanjam.
Oh, not a trader.
No, he won't give anything. Dayaluhu na, kimapi na dadati.
Hastambi na dadati.
Hastamapi na dadami. Hastamapi na dadami iti uktavan saha. Astu, agre kimasti?
Kadika ekam prashnaha.
Ekaha prashnaha va?
Ekaha prashnaha. Rakshati, chaturthi vibhakti? But then can I say mom rakshatu
mom rakshatu parantu is not chaturthi panchami
panchami
okay so astu agre kim asti iti pashyami I unless I go to the end it won't tell I think astu agre kim asti tat ekavaram दृष्ट्वा चतुर्थम् अस्ति एवं प्रयत्नस्य वैशिष्ट्यं प्रयत्नस्य वैशिष्ट्यं मोहना भगिनी भवती वदतु
मण्डुगस्य कथा
प्रयत्नस्य वैशिष्ट्यम् अस्तु धन्यवादः सर्वे एकवारं श्रुत्वा आगच्छन्तु अस्तु वा अस्तु धन्यवादः अस्तु इदानीं समयः बहु अतीतः अतः गीतासोपानं प्रति एव गच्छामः सो अत्र गीता सोपाने अथवा भाषा सोपानं प्रति वयम् अन्य पुस्तकं प्रति आगतवन्तः. सो अद्य अत्र किं किम् अस्ति, भवन्तः सन्देहः अस्ति वा इति. सो अत्र प्रथमम् अस्ति प्रथमपुरुषः, खलु? सः, सा, तत्, एषः, एषा, एतत्. अत्र सन्देहः अस्ति वा इत्युक्ते प्रथमपुरुषः एवं भवति. प्रथमा विभक्ति, प्रथमपुरुषः अपि च प्रथमा विभक्ति. प्रथमा विभक्ति रामः, रामौ, रामाः. इदानीं मतिः अस्ति चेत् मतिः, मती, मतयः. हरिः अपि समानमेव, हरिः, हरी, हरयः. परन्तु नपुंसकलिङ्गे वारि, वारिणि, वारीणि इति वयं पठितवन्तः, खलु? आं वा? आम् पठितवन्तः. सो अत्र सन्देहः नास्ति इति. अहं, त्वम् अपि च भवान्, भवति. उदाहरणार्थं सः पठति, सः पठति. तौ, ओ अग्रे आगच्छति खलु, लट्लकारे आगच्छति. इदानीम् एतत् मास्तु. अस्तु अस्तु. आं न किम् अपि वयं जानीमः. नास्ति बुद्धि, अस्ति नास्ति जानीमः. अत्र कुत्र अन्यत्र जानीमः. षष्टि विभक्ति, षष्टि विभक्तिः एवं भवति. एकवारं पश्यामः, दृष्ट्वा अग्रे गच्छामः. सो अत्र रामस्य, रामयोः, रामाणाम् एतत् वयं जानीमः. बहु प्रसिद्धः रामस्य, रामयोः, रामाणाम्. एवमेव ज्ञानस्य, ज्ञानयोः, ज्ञानानाम्. अत्र नाम सर्वत्र नाम नाम इति भवति, अपि च दीर्घं सर्वत्र दीर्घं भवति. गौरी, मति इति ह्रस्वमस्ति चेत् अपि दीर्घं भवति. हरीणां, मतीनां, गुरूणां, पितॄणां, वधूव सर्वं. मातृशब्द मातॄणां. सो अत्र मूलरूपं दीर्घं कृत्वा नाम योजयामः. सो अत्र रेफा ऋकारः, षकारः अस्ति चेत् न भवति, नो चेत् न भवति. मधूनाम् एव, परन्तु वारीणाम्. अन्य किम् अस्ति, इकारः, ईकारः अस्ति चेत् योः भवति. हर्योः, हरि इकारः गच्छति. हर्योः, मत्योः, गौर्योः इति भवति. उकारः अस्ति चेत् वोः भवति. कुर्वोः, धेन्वोः, वद्वोः एवम् एवं भवति. ऋकारः अस्ति चेत् रोः भवति. मात्रोः, मात्रोः. सो अत्र एवं लिखामः, मात्रोः इति लिखामः. मात्रोः, पित्रोः, पितॄणां. पितुः इति भवति हरेः, परन्तु पत्युः किञ्चित् भिन्नरूपम् अस्ति. पत्युः. अनन्तरं गुरोः. सो अत्र इकारान्त उकारान्तपदमस्ति चेत् पुल्लिङ्गवत् भवति. मतेः, धेनोः अथवा मत्याः, रमायाः इव, धेन्वाः, वद्वाः इव. सो अत्र विकल्पद्वयं भवति स्त्रीलिङ्गे. अपि च सर्वनामपदं तस्य, तयोः, तेषां पुल्लिङ्गे शां भवति. अत्र एव शां, अन्य कुत्रापि शां नास्ति. एवमेव पुल्लिङ्गे नपुंसकलिङ्गे तस्य, तयोः, तेषां, तस्य, तयोः, तेषां. स्त्रीलिङ्गे सां भवति, तासां, तस्याः. परन्तु तयोः समानं, तयोः, तयोः समानं. कयोः, कयोः पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग समानं. कासां स्त्रीलिङ्गे, केषां, केषां पुल्लिङ्गे नपुंसकलिङ्गे. भवत् शब्दः बहु भिन्नशब्दः. भवतः, भवतोः, भवताम्. अत्र भवत् शब्दः अस्ति चेत् सर्वत्र तकारः भवति. भवतः, भवतोः, भवताम् इति थ इति भवति. इदानीं स्त्रीलिङ्गे भवती इति मूलरूपं भवति, भवति भवती इति इति अस्ति चेत् नदी इव, नद्याः नद्योः नदीना, भवत्याः भवत्योः भवतीना. एतत् इदानीं मास्तु. मम आवयोः अस्माकं, मम आवयोः अस्माकं. सो अत्र त्रिषु वचनेषु समानं, त्रिषु वचनेषु, त्रिषु लिङ्गेषु समानं भव, वचनेषु न, त्रिषु लिङ्गेषु समानं भवति. मम आवयोः अस्माकं, मम आवयोः अस्माकं. युष्मशब्दः तव युवयोः युष्माकं, तव युवयोः युष्माकम्. अत्र प्रश्नः अस्ति वा? सो दिस् वास् अ क्विक् रिव्यू. अस्तु, अग्रे अग्रे किम् अस्ति? षष्टिविभक्तिः अभवत्. पुरतः पृष्ठतः वयं कृतवन्तः. आवश्यकं चेत् पुनरेकवारं कुर्मः. अपि च अद्य एतत् एतत् प्रति गच्छामः, लट्लकारं प्रति गच्छामः. प्रश्नः अस्ति वा? कृपया.
कुत्रापि नै.
उत्तम उत्तमप्रश्नः. अस्तु, अहं सो ऐ एम् गोयिङ्ग् टु गो ए लिटल् बिट् डीपर्. यु टेल् मी इफ् इट् इस् टू मच् वा न वा इति. I did this,
Yeah, you did long back.
Long back, अस्तु.
प्रश्नः किं राधिका?
Why is it called लट् लकारः?
वर्तमानकाल
इस् काल्ड् लट् लकार. अस्तु, पदम् इति इति अस्ति चेत् अर्थयुक्तवर्णानां समूहः इत्युक्ते पदम् इति इति वदामः चेत् यारल इति लिखामः चेत् तत्र पदं न भवति खलु. पदम् अस्ति चेत् अर्थम् आवश्यकम्. अर्थयुक्तवर्णानां समूहः एव पदम्. पदम् इति वदामः चेत् नामपदं भवति, क्रियापदम् अपि भवति. नामपदस्य अन्य somebody, I'm going to mute, I'm going to mute. Let's see if I can mute all. Okay, so atra padam iti iti asti chet varnanam samuhah is not just a collection of letters, parantu artham avashyakam. Arthayukta varnanam samuhah padam. रामः फलं हस्तेन खादति इति वर्णानां समूहः अस्ति, परन्तु अर्थः अपि अस्ति. सो अत्र प्रथम रामः फलम् इति नामपदम् इति वदामः खलु, नामपदं. हस्तेन अपि नामपदं. हौ डु वि नो इट् इस् नामपदम्? अन्ते किम् अस्ति? अन्ते ओके, ऐ विल् वेट् फर्
विसर्गः अस्ति.
प्रथमं विसर्गः अस्ति. फलम् इति मकारः अस्ति. हस्तेन अत्र सो अत्र सर्वत्र विभक्तिरूपम् अस्ति खलु. रामः प्रथमा विभक्ति एकवचनं, फलमपि प्रथमा विभक्ति द्वितीया विभक्ति एकवचनं, हस्तेन तृतीया एकवचनं. सो अतः पदम् इति वदामः चेत् नामपदं भवति अथवा क्रियापदं भवति. खादति इति क्रियापदम् अस्तु वा? खादति इति क्रियापदम्. सो अत्र नामपदमस्ति चेत् विभक्तिं योजयामः चेत् एव वयं वाक्ये उपयोगं कर्तुं शक्नुमः. सो अत्र रामः इति अस्ति चेत् मूलरूपं किम्?
राम
राम राम. राम इति पदम् उपयुज्य वयं वाक्यं रचयामः वा केवलं सम्बोधने भवति हे राम तथा एव वाक्यं नास्ति तत् केवलं सम्बोधन सो अतः विभक्तिं योजयामः चेत् एव वाक्ये वयं प्रयोगं कर्तुं शक्नुमः रामस्य पुत्रः रामे एवम् एवमेव सो अत्र विभक्तयः इति पदं भवति नामकरणं भवति विभक्ति सो अत्र विभक्तेः अन्य नाम अस्ति सुप् सुप् सो आल् दीस् प्रत्याहार दे आर् काल्ड् सुप् लैक् राम सु औज सो आल् दीस् थिङ्ग्स् आर् काम्प्लिकेटेड् परन्तु ईच् विभक्ति इस् काल्ड् सु लैक् प्रथमा विभक्ति एकवचनम् इस् काल्ड् सु and then in the end is called ip like saptami bahuvachanam is called ip sup so together we call it sup sup anta padam we call it subantam padam nama padam subantam padam are you understanding this or is it too much
no
it's
good
it's we're getting
I'm understanding it.
Okay, so we'll say it a few more times, you will get it, okay, if you're not getting it now. So, the padam iti vadamaha che subantam padam atava tingantam padam. Ting iti vadamaha che ti ante bhavati, like patati, likati, gachati. So, that is called tingante. Tingante asti, so it's called tingantam padam, okay. सो पदम् इति अस्ति चेत् केवलं पद भागः अस्ति नामपदम् अस्ति क्रियापदम् अस्ति अन्यपदं नास्ति नामपदे एव अव्ययम् एतादृशं भवति क्रियापदम् अथवा नामपदम् एवमेव अस्ति सो अतः सुबन्तं पदम् अथवा तिङन्तं पदं टुगेदर् वि काल् इट् सुप्तिङन्तं पदम् So, the definition of padam is sup ting antam. It is either sup antam or ting antam. So, subantam atava ting antam is called padam. Either subantam or ting antam. Subantam is nama padam. We know that, nama padam. Ting antam padam is kriya padam. That we know. Nama padasya vibhakti rupam bhavati. So, ataha vibhaktayaha bhavati. क्रियापदम् अस्ति चेत् लकाराः भवन्ति सो वाट् आर् लकाराः दट् इस् वाट् वि आर् इण्ट्रेस्टेड् इन् नौ सो पदं प्रकृति प्रत्ययः सो सुबन्तं पदम् अस्ति चेत् कथं भवति इत्युक्ते प्रातिपदिकं नाम इति राम इति अनन्तरं सुप्रत्ययं योजयित्वा प्रातिपदिकम् इस् the mula rupam then we have ramasya athava rame all those things so the mula rupam for tinganta padam is dhatu plus the ting pratyaya itikte vartamana kalava bhavishyat kalava bhuta kalava kim etat yojayitva kad ti parantu madhya a api agacchati parantu ti kad ti तिङन्तं तिङ् प्रत्ययं योजयित्वा एवं भवति खाद् अस् धातु अस्ति चेत् केवलं ति एव खाद् अस्ति चेत् सो अत्र दशलकाराः भवन्ति सो वि हेव् 10 लकारास् हौ मेनी विभक्तयः भवन्ति एकविंशतिः एकविंशतिः विभक्तिरूपाणि भवन्ति एकवचनं द्विवचनं बहुवचनं सप्तविभक्तयः सन्ति सो टुगेदर् एकविंशतिः रूपाणि भवन्ति सो अत्र लट् लकार इस् वर्तमानकाल सर्वत्र वै इस् इट् काल् ल इत्युक्ते एतेषु सर्वेषु पदेषु ल दृश्यते अतः लकाराः सो द नेम् इस् गिवन् एस् लकाराः बिकास् एव्रीवेर् स्टार्ट्स् वित् ल इति आरम्भे अस्ति अतः lakaraha iti vadamaha. So what we are learning are just five. Lat lakara is vartamana kala, lrit lakara is bhavishyat kala, lot lakara is ajna prarthana, lang lakara bhuta kala, ling lakara vidhiling athava ashirling iti vadamaha. So lat lakara is vartamana kala. This we don't do. Late vede asti tat na patamaha. Bhutakale lang lakaram patamaha. Bhavishyatkale lrit lakaram patamaha. Apicha lot vidhiling evameva patamaha. So this is the technical term, paribhasha. Paribhasha means technical term. So this is the artham, vartamana kala, bhuta kala, bhavishyat kala, ityadikam bhavati. So did I answer your question, Bhagini?
Radhika, I still don't know where the la came from.
The la was already given.
Given there, okay.
Lat, lung, rit, lot, ling.
That's what I was confused with.
Yeah, so yeah. It was already given.
So, already given,
yeah.
Okay.
Already given. So together they call it lakaraha.
Okay.
Lakaraha. So to understand, they say lat vartamane, late vede, all those things. That we don't care.
Okay.
Astu. Okay. So coming back to this one. So the la is already given. Lat iti. So the okay. So I'll go over that another time. Okay. Astu. Anya prashna asti va? Shashti vibhakti. Kim. Oh, you said na. Okay. Nasti che takra. Atra gachamaha. Astu. Aham gatavarge uptavati kalo. Ante kim asti. Guru iti asti chet. Ante ukaraha asti. Ukaraha asti. Pita akaraha asti. Sena akaraha. Vayam makaraha. Parantu pratipadikam. Pratipadikam itikte mula rupam. Shakara iti asti chet api ante a eva asti, akaraha, yatha asti chet, kripa iti asti chet ante akaraha asti, shuraha ante akaraha asti, hetu asti chet ukaraha asti, eteshu sarveshu sabdeshu antimaha varunaha swaraha. So starting from here, it's only one. Ru asti parantu we don't count that. Ru iti na bhavati. Ru a I o au eva asti iti swaraha. Swarakshranam ach iti nama. Ach iti bhavantah smaranti va. Do you guys remember?
You said it last.
Last time. So this is like this. Huh?
Sorry, Radhika. Can you just mention it again, please?
A-I-Un. A-I-Un. Rilruk. Anantaram. A-Ong.
The Damaru.
I ouch. So ataha cha paryantam ach. So atrapi ach iti nama asti. Swarakshranam sangraha. Idanim an iti vadamaha chet ai un eva. So ak iti vadamaha chet keke swaraha santi. A, I, U, R, R. Ang iti vadamaha chet keke swaraha santi.
K, G.
A, I, U.
A-O.
A-O. A-E-O, R, R, A-O. अङ्ग् इति वदामः चेत् अङ्ग् इति वदामः चेत् अ इ ओ र र ए ओ सो अत्र ण इति इत् वर्णः इति वदामः क अपि ग अपि न गणयामः इदानीम् अच् वर्णाः इति अस्ति चेत् के के सन्ति अ इ उ ऋ ऋ ए ओ ऐ औ सो अत्र पश्यन्तु अ इ उ ऋ ऋ नास्ति ए ऐ ओ औ
सो ऊ इस् नाट् इन्क्लूडेड् राधिका ऊ
नो वेन् वि जस्ट् से ऊ इट् इस् इनफ् We don't have to say U, U. A, A iti vadamaha chet, A, A api asti. E iti vadamaha chet, E, E api asti. U, U api asti. R, R api asti. Anantaram, R sadhanataya bahu viralaha, very rare. So, atra, atra nasti. A, I, O, O. So, Ach iti vadamaha chet, sarve swaraha. स्वराक्षराणा सर्वे स्वराः मिलित्वा अच् इति वदामः सो अतः एते सर्वे शब्दाः अच् अन्त सो वि काल् इट् अच् अन्ते अस्ति अच् अन्ताः शब्दाः सो द च विल् बिकम् ज सो इज् प्लस् अ विल् बिकम् ज सो अजन्ताः इट् विल् बिकम् अजन्ताः अजन्ताः शब्दाः सो अच् अन्ते यस्य सः अजन्तः सो दिस् इस् द डेफिनेशन् अच् अन्ते यस्य सः अजन्तः सो दिस् वास् शोन् एस् अ डायग्राम् हियर् So, it's a different diagram. So, when we say Ach Pratyahara, it's like this. Ayun, Rulruk, Aung, I ouch. Ayun, Rulruk, Aung, I ouch. Ach. Evam, evam. So, Ante Varunaha, It Varunaha, Iti Vadamaha. Kevalam Uccharanartam Eva Asti. Ach Antaha Ajanta Shabdaha. अस्तु इदानीम् आवश्यकं वयं पठितवन्तः अतः अत्र आगच्छामः अस्तु सो वि आर् स्टार्टिङ्ग् द न्यू बुक् ओके आन् पेज् 36 अस्तु वा आम्
अस्तु
अस्तु न शोचति न काङ्क्षति इदानीमेव वि सा दट् रैट् शोचति चिन्ता एव शोषणं करोति न शोचति न काङ्क्षति अर्थः कः सो अत्र आल् द टैटल्स् विल् बी फ्रम् द भगवद्गीता सम् पार्ट् आफ् भगवद्गीता सो अत्र लट् लकारः लट् सो हियर् आल्सो दे सेङ्ग् लट् लकारः लट्लकारः इत्युक्ते वर्तमानकालं सूचयति पश्यत इत्युक्ते यूयं पश्यत उच्चैः पठत यूयं पठत लोट्लकार अवगच्छत च पश्यत पठत अवगच्छत च दट् मीन्स् वाट् पश्यत मीन्स् वाट्
Read
loud and understand. Why they are saying read loud? So the sounds will go inside. And you'll understand. Astu. Kopi patati va? Kaha patati? Mohana bhagini patita vati va? No va? पठितवती पठति वा पठतु
रथः गच्छति
you want me to read horizontal or vertical?
Horizontal.
Rati gachatah ratau ratau gachatah rata gachanti
rataah gachanti
rataah gachanti.
So atra we have the vartamana kala. So is it the first time you are learning this? No kalo.
No,
So we have balakah balakau balakah. So in this Gita Sopanam, all the words will be from the Bhagavad Gita. That's the only difference. Okay. Ratah ratau ratah. Titah anti. So that is how I always try to remember. Titah anti. Balakah balakau balakah. Titah anti. एवं भवति. अस्तु अग्रिममपि पठतु भगिनि.
आचार्यः उपदिशति आचार्यौ उपदिशतः आचार्याः उपदिशन्ति
उपदिशन्ति उपकारः अस्ति उपदिशन्ति विशन्ति. अस्तु राधा भगिनी अग्रे कृपया.
मातुलः तिष्ठति मातुलौ तिष्ठतः मातुलाः तिष्ठन्ति
अग्रिममपि.
सचिवः वर्णयति सचिवौ वर्णयतः सचिवाः वर्णयन्ति.
धन्यवादः शारदा भगिनी अग्रे.
व्यूहः अस्ति व्यूहौ स्तः व्यूहाः सन्ति सैनिकः पश्यति सैनिकौ पश्यतः सैनिकाः पश्यन्ति
सैनिकाः पश्यन्ति. सर्वत्र तीतः अन्ति. ओके अस्तु व्यूहः अर्थः कः?
अरेञ्ज्मेण्ट्
So atra thing they will arrange it this way. So once the enemy goes inside, they will close off. Chakra vyuha asti anantaram anya kimapi vyuha arrangement asti. Astu matulah vayam jani maha matulah ititte
angal
मातुः भ्राता अस्ति. सचिवः मन्त्री इति चिन्तयामि. मन्त्री इति व्यूह. सैनिकः
आर्मि
सोल्जर् सैनिकः भटः इति भटः सोल्जर् सैनिकः सैनिकौ सैनिकाः. अस्तु अग्रे श्यामला भगिनी.
धीरः मुह्यति धीरौ मुह्यतः धीराः मुह्यन्ति
सो अत्र धीरः इति अर्थः कः? यस्य धैर्यम् अस्ति. सो दिस् इस् अ विशेषणं दट् इस् इट् इस् एन् अड्जेक्टिव् सो इट् केन् बि धीरा आल्सो एनिवे. अस्तु अग्रे
स्थितप्रज्ञः अभिनन्दति स्थितप्रज्ञौ अभिनन्ददः स्थितप्रज्ञाः अभिनन्दन्ति
प्रज्ञः इत्युक्ते स्थिरम् अस्ति सः प्रज्ञः इत्युक्ते ज्ञातुम्
इच्छेज्
साधारणतया ज्ञ इति अस्ति चेत् ज्ञः इति अस्ति चेत् दे हेव् सम् नालेज् दे हेव् द नालेज् इति उदाहरणार्थं किम् ओके अस्तु अग्रे वदामि सो सो हूएवर् हेस् दट् दट् नालेज् उदाहरणार्थं इदानीं मनसि न आगच्छति अस्तु अग्रे भगिनी भगिनी अग्रे वसन्ता भगिनी
भगिनी वदति भगिन्यौ वदतः भगिन्यः वदन्ति
अग्रे
गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति
गात्राणि सीदन्ति सो अत्र अत्र पश्यन्तु पुल्लिङ्गे अपि तीतः अन्ति अन्ते तीतः अन्ति अत्र भगिनी इति स्त्रीलिङ्गपदम् अत्र अपि तीतः अन्ति अन्ति एव सो अत्र लकारः लकारे लिङ्गभेदः नास्ति लिङ्गभेदः नास्ति पुरुषभेदः भवति पुरुषभेदः इत्युक्ते भवान् अहं त्वम् इति पुरुषभेदः भवति अस्तु भवान् पठितुम् इच्छति वा भवान् अस्तु गात्रं सीदति सीदति इत्युक्ते किम् अर्जुनः वदति खलु गात्रं मम 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 गात्रं सीदति shaking see that like a shivering trembling is a better word yeah
and gatram is what Radhika
gatram is like a hand I think hand or the body like
body.
That
gatram is
body
so body is shaking or is it the
gatram I think gatram is like getting voice
gatram is throat
means dry.
Oh, the mouth is getting dry, right?
Yeah.
I was thinking hand, my body is shaking, both have the same word.
Gatraka is body. Gatra is limb or member of the body.
Mm-hmm.
Member of the body. See the day, trembling.
Okay. There's so many words for see the
weak. Okay, I would say weak. My I'm getting weak. Iti. Asto. सो गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति बाडि पार्ट् सीदन्ति अस्तु भवानी अग्रे मुखं
शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति
शुष्यति
इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति
इन्द्रियाणि हरन्ति सो वि विल् से दिस् अण्ड् विल् स्टाप् शुष्यति इत्युक्ते
ड्रै
मै मौत् सो अत्र मुखं मीन्स् इट् इस् बोत् फेस् एण्ड् मौत् हियर् ऐ एम् थिङ्किङ्ग् मौत्
मौत् इस् ड्रै
मौत् मै मौत् इस् गेटिङ्ग् ड्रै मौत् इस् ड्रै मुखे वि डोण्ट् हेव् टु मौत्स् बट् यु नो इस् जस्ट् फार् द नालेज् मुखं मुखे मुखानि इन्द्रियं हरति मीन्स् टु टेक् अवे टु टेक्
डिफीट् ओर् टेक् अवे
टु टेक् अवे हरणं टु डिफीट् आल्सो य हरति इस् टु टेक् अवे इट् मीन्स् टु डिफीट् आल्सो सो हरति ऐ रिलै आन् द डिक्षनरि अलाट्
Yes.
Harati, take away, steal. sees to defeat, remove all those things, destroy. Everything is harati. So our indriyams will take our mind away like that. Indriyam.
It's all Gita slokas.
From the Bhagavad Gita.
Yeah.
Everything from the Bhagavad Gita.
It's Arjuna's Vishada.
Arjuna Vishada Yoga. Vishada
Yoga. Indriyam is the senses.
Senses are failing. I think that is the meaning is
Indriyam will steer us away, will turn us, will steer, harati. Indriyam will harati. Indriyam will seize us, will rob us, like that. This is how I understand.
Fail.
Okay. Samayaha abhavat, we will continue this. So, you know, those who have the book, how many of you do not have the book?
I want to come and get the book.
Yeah, please get it from me. Lakshmi Bhagini, did you get the book yet?
I think by next week I should get it. They already shipped it.
Okay, all right. They already shipped means you will get it, okay? Anyway, we don't have exercises yet.
I have the book.
So. Okay, so starting next week we will have the exercises. Okay? Abhyasa. Idanim kimapi nasti. Shanti mantra muktva samapayamah. Om sarve bhavantu sukhinah. सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्री गुरुभ्यो नमः हरिः ॐ धन्यवादः